इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी श्वः स्लोवाक गणराज्यं प्रति प्रस्थास्यति। प्रधानमन्त्री नरेन्द्र मोदी अस्यां यात्रायां स्लोवाक देशस्य प्रधानमन्त्रिणा फिको इत्यनेन सह वार्तालापं करिष्यति, तथा च सहकारस्य नूतनान् मार्गान् अन्वेषयिष्यति। प्रवासावधौ प्रधानमन्त्री राष्ट्रपतिना पेलेग्रिनी इत्यनेन सहापि मेलनं करिष्यति। द्वैपाक्षिक व्यापारे निरन्तर वृद्धेः दृष्ट्या प्रधानमन्त्रिणः यात्रायाः महत्वं वर्धते। यच्चतुर्विंशत्यधिकद्विसहस्रतमे वर्षे एकबिलियन US डॉलर परिमितम् अतिक्रम्य गतवर्षे 8.1 बिलियन US डॉलर परिमितम् आसीत्। अनया यात्रया यूरोपीयसंघस्य सदस्यराष्ट्रैः सह सहकारं सुदृढं कर्तुं भारतस्य प्रतिबद्धताम् अपि सुदृढं भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य देहरादूननगरस्य भारतीय सैन्य अकादम्यां पासिंग आउट परेड इत्यस्य समीक्षां करिष्यति। अस्मिन् वर्षे पासिंग आउट परेड इतीदम् ऐतिहासिकं भविष्यति, यस्मिन् प्रथमवारं महिलाः पुरुषैः सह पथसञ्चलनं करिष्यन्ति। अस्मिन् भव्यसमारोहे 500+ पुरुषाः महिलाः च अन्तिमं पदं स्वीकृत्य भारतीयसेनायाम् अधिकारित्वेन नियुक्ताः भविष्यन्ति। भारतीय सैन्य अकादम्याः पासिंग आउट परेड न केवलं सैन्यपरम्परा अस्ति, अपितु राष्ट्रसेवायां समर्पितानां युवाधिकारिणां कृते नूतनयात्रायाः आरम्भोऽपि अस्ति। केन्द्रीय गुरूद्योग इस्पात मन्त्रिणा HD कुमारस्वामिना उक्तं यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना विनिर्माण आधारित वृद्धेः वृत्त्यावसर निर्माणस्य च विषये अभूतपूर्वं महत्वं प्रदत्तम्, येन औद्योगिक वृद्धिः त्वरिता अभवत्, बृहद् वृत्त्यावसराश्च कल्पिताः। विदेशमन्त्रिणा डॉ एस जयशंकरेण अमेरिकादेशस्य विदेश सचिवेन मार्को रूबियो इत्यनेन सह वार्तालापं कृत्वा गल्फ प्रदेशे US नौसेनया कृताक्रमणस्य विषये प्रबलं विरोधं प्रकटितम्, यस्मिन् त्रयः भारतीयाः नाविकाः मृताः। सामाजिकान्तर्जालीये पटले एकस्मिन् लेखे डॉ जयशंकरः अवदत् यत् वाणिज्यिक नौवहनं विरुद्धं एतादृशानि प्राणघातक आक्रमणानि न्यायोचितानि न सन्ति इति। ओमान तटस्य तटे पलाव ध्वजयुक्तस्य MT सेटेबेलो जलयानस्य उपरि अमेरिकादेशस्य आक्रमणे भारतीयदलस्य त्रयः सदस्याः मृताः, येन नवदिल्ल्यात् तीक्ष्ण प्रतिक्रिया प्रदत्ता। रक्षामन्त्री राजनाथसिंहः दृढतया उक्तवान् यत् ऑपरेशन सिन्दूर अभियानस्य समये स्वदेशीय प्रक्षेपास्त्राणाम् असाधारणं प्रदर्शनं भारतस्य रक्षाशोधस्य विकासपर्यावरणव्यवस्थायाः वर्धमानशक्तेः प्रमाणम् अस्ति। रक्षा अनुसन्धान विकास संघटनस्य रक्षा अनुसन्धान विकास प्रयोगशालायाम् उन्नतास्त्र प्रणाली परिसरस्य उद्घाटनावधौ रक्षामन्त्रिणा उक्तं यत् शक्त्यै शान्तेः आवश्यकता अस्ति, तथा च तस्याः शक्तेः सर्वाधिकः विश्वसनीयाधारः आत्मनिर्भरता एवास्ति। दिल्ली NCR क्षेत्रे गतरात्रौ निरन्तरं द्वितीयरात्रौ प्रचण्डवृष्टिः अभवत्। वृष्ट्या सह मेघगर्जनं तीव्रवायुः विद्युद्योतनं चाभवत्। भारत ऋतुविज्ञानविभागेन दिल्ल्याः तथा समीपस्थानां क्षेत्राणां कृते रेड अलर्ट इति रक्तवर्णीया सञ्चेतना प्रसारिता अस्ति। IMD इत्यनेन सावधानं कृतं यत् आर्द्रकालः अनुवर्तयितुं शक्यते। अग्रिमेषु कतिपयेषु दिनेषु मेघवृष्टिः निरन्तरं भवितुमर्हति। क्रिकेट क्रीडायाम् अद्य हिमाचलप्रदेशस्य धर्मशालायां तिसृणाम् ODI क्रीडायां श्रृङ्खलायाः प्रथमायां क्रीडायां भारतम् अफगानिस्तानदलं सम्मुखीकरिष्यति। क्रीडा 12:30 आरभ्यते। इति वार्ताः।